इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी कुवैत देशस्य आमिर शेख मिशल अल अहमद अल जबेर अल सहबा इत्येतस्य आमन्त्रणे सति द्विदिवसीय यात्रायां भविष्यति। अस्मिन् अवधौ प्रधानमन्त्री कुवैत देशस्य नेतृभिः सह चर्चां करिष्यति। प्रधानमन्त्री कुवैत देशे भारतीय समुदायेन सह अपि संवादं समाचरिष्यति, अपि च एकस्य श्रमिक शिबिरस्य भ्रमणं करिष्यति। असौ कुवैतस्य एमिर इत्येतस्य विशिष्टातिथित्वेन 26वें अरेबियन गल्फ कप इत्याख्यस्य उद्घाटन समारोहे सम्मिलितो भविष्यति। श्वः प्रधानमन्त्रिणे मोदिने बायन पैलेस इत्यत्र गार्ड ऑफ ऑनर इति सम्मानं प्रदास्यते। तदनु श्रीमोदी कुवैतस्य युवराज्ञा सह उपवेशनानि विधास्यति। अपरत्र कुवैतस्य प्रधानमन्त्रिणा सहापि प्रतिनिधिमण्डलस्तरीया वार्ता विधास्यते इति। इयं 43 वर्षेष् कस्यापि भारतीय प्रधानमन्त्रिणः खातिदेशानां प्रथमा यात्रा भवेदिति मन्यते। इयं यात्रा भारताय श्रेयस्कारिणी भवेदिति, यतोहि कुवैत देशः वर्तमानसमये खाति सहयोग परिषदः अध्यक्षपदम् अलंकरोति इति। आर्थिक विषयाणां केन्द्रीय मन्त्रिमण्डलेन 25वें वर्षस्य सत्राय खोपरा इति शुष्क नारिकेल फलस्य न्यूनतम समर्थन मूल्यम् अनुमोदितम्। केन्द्रीय मन्त्रिमण्डलस्य उपवेशनानन्तरं ह्यः सायं नवदिल्ल्यां वार्ताहरान् सूचयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् एनडीए इति प्रशासनेन कृषकाणां कल्याणार्थं नैकाः योजनाः समारब्धाः। तेनोक्तं यत् एतत् निश्चप्रचं कृषकाणां आयाभिवर्धनं प्रति प्रशासनस्य प्रतिबद्धतां प्रदर्शयति। भारतीय ऋतुविज्ञान विभागेन अनुमानः प्रकटितः यत् जम्मू कश्मीर हिमाचल प्रदेशयोः आगामिषु 6 अतिशैत्य प्रकोपस्य सम्भावना दृश्यते। विभागानुसारी एतादृशी स्थितिः पंजाब राजस्थान प्रदेशयोः द्रष्टुं शक्यते इति। तत्रैव मध्यभारते आगामिषु 4 न्यूनतम तापमानं 2 उत वा 3 डिग्री सेल्सियस मितं यावत् भवितुं शक्यते इति। केन्द्रीय पूर्वोत्तर विकास मन्त्री ज्योतिरादित्य सिंधिया अवदत् यत् अद्य केन्द्रीय गृहमन्त्रिण अमितशाहस्य अध्यक्षतायाम् आयोक्ष्यमाणाया पूर्वोत्तर परिषद 270वें पूर्णोपवेशनम् अस्य क्षेत्रस्य तीव्र विकासाय नवीनाधारशिलां स्थापयिष्यति। गतरात्रौ अगरतलां सम्प्राप्य एमबीबी इत्येतस्मिन् विमानस्थानके वार्ताहरैः सह सम्भाषमाणः श्री सिंधियाः सूचितवान् यत् अग्रिमेष् दिनेष् पूर्वोत्तरक्षेत्रे विकासगतिः तीव्रा भविष्यति, यस्य परिकल्पना प्रधानमन्त्रिणा श्रीमता नरेन्द्रमोदिना कृतास्ति। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन् इत्येषा ह्यः राजस्थानस्य जैसलमेर नगरे राज्यानाम् अथ च केन्द्रशासित प्रदेशानां वित्तमन्त्रिभिः सह पूर्व आयव्ययिक परामर्शस्य अध्यक्षतां कृतवती। अस्यां सभायां केन्द्रीय वित्त राज्यमन्त्री पंकज चौधरी, मुख्यमन्त्रिणः विभिन्नानां राज्यानां उपमुख्यमन्त्रिणः च उपस्थिताः आसन्। एतस्यां सभायां प्रतिभागिनः आगामिनः आर्थिक वर्षस्य केन्द्रीय आयव्ययकस्य विचारार्थं केन्द्रीय वित्तमन्त्रिणे अनेकानि बहुमूल्य युतान् उपायान् प्रदत्तवन्तः। अपि च क्रिकेट वार्तायां महिलानां क्रिकेट प्रतिस्पर्धायां भारतं श्वः मलेशियायाः कुआलालामपुरे प्रथमस्य अण्डर 19 इत्येतस्याः 19 वयोवर्गीय एशिया चषक स्पर्धायाः द्वन्द्वस्य अन्तिमे चक्रे बांग्लादेशेन सह क्रीडिष्यति। अस्याः प्रतिस्पर्धायाः प्रसारणं प्रातःकाले 7 समारप्स्यते इति वार्ताः।